नमस्कार सर्वेभ्य. वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा.
धन्यवादः.
धन्यवादः भगिनि.
अद्य किञ्चित् सम्भाषणं प्रयत्नं कुर्मः. प्रथमं विजय महोदय, कृपया अन्म्यूट् करोतु. भवतः नाम किम्? विजय महोदय वदतु.
नमस्कारः.
केवलं भवतः नाम किम् इति वदतु.
मम
नाम रङ्गराजन्.
रङ्गराजन् महोदय म्यूट् मध्ये तिष्ठतु कृपया. अहं श्रुतं वदतु विजय महोदय.
मम नाम विजय.
अस्तु, भवान् किं करोति, किं कार्यं करोति?
अहं वैद्यः.
अस्तु, उत्तमम्. कुत्र पठितवान् पूर्वम्?
अहं बेङ्गलूर् मेडिकल् कालेज्.
अस्तु,
पठवान्
बेङ्गलूर् मेडिकल् कालेज् इति विश्वविद्यालयस्य नाम खलु?
बेङ्गलूर् यूनिवर्सिटि निम्हान्स्.
आम्, विश्वविद्यालयस्य नाम खलु तत्?
विश्वविद्यालयः निम्हान्स् यूनिवर्सिटि, सेण्ट्रल् यूनिवर्सिटि निम्हान्स्.
अस्तु, अवगतम्. अस्तु, उत्तमम्. कथं चलति अत्र? अधुनापि बेङ्गलूरु मध्ये एव वसति वा भवान्?
अहं चेन्नै वसामि.
चेन्नैनगरे वसति वा? अस्तु, सम्यक्, उत्तमं. कुत्र कार्यं करोति अत्र चेन्नैनगरे?
चिकित्सालये कार्यं करोमि.
अस्तु, चिकित्सालयस्य नाम किम् इति वदति वा?
चिकित्सालयस्य नाम कामाक्षी हास्पिटल् अस्ति.
अस्तु अस्तु, वेलचेरी मध्ये अस्ति खलु कामाक्षी वैद्यशाला?
आम् आम्.
अस्तु, उत्तमं, सम्यक् महोदय, धन्यवादः.
धन्यवादः.
वैद्यनाथन् महोदय, कृपया अन्म्यूट् करोतु. वैद्यनाथन् महोदय अस्ति वा?
अस्ति भगिनि.
कथमस्ति भवान्?
सम्यक्
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 अस्मि इति वक्तव्यम्
अस्ति. सम्यक् अस्ति, सम्यक् अस्ति, सम्यक्
अस्ति. एकनिमिषं शृणोतु. प्रथमं शृणोतु, सम्यक् अस्मि इति. अहम् इत्युक्ते अस्मि इत्येव वक्तव्यम्. अहं सम्यक् अस्मि, भवती सम्यक् अस्ति.
अहं सम्यक् अस्मि.
अस्तु, किं करोति भवान्? किं किं कृतवान् अद्य? किं कृतवान्?
रिटैर्ड् मे.
न न न, मम प्रश्नः अस्ति, अद्य अद्य भवान् किं कृतवान्? किं किं कृतवान् अद्य?
अद्य मम पुत्री पुत्री गृहं गच्छामि.
गतवान्, पूर्वं गतवान् खलु?
पूर्वं
गतवान्. गतवान् इत्युक्ते गतवान् गतवान् इति न, गतवान्
गतवान् गतवान्
गतवान्. सम्यक्, उत्तमं. भोजनं कृतवान् खलु?
न भगिनि.
किमर्थम्? नववादनम् अभवत् किमर्थं न कृतवान्
नववादनं संस्कृतं पाठं इण्ट्रेस्ट्
पठितुं
संस्कृतपाठं पठितु
पठितु इति न पठितुं टु रीड् पठितुं
पठितुं
वदतु प्रयत्नं करोतु सम्यक् एव वदति भवान्
संस्कृतं पाठं पठनार्थं भोजनं
कृतवान् वा
भोजनं करोमि भोजनं
न न पठनार्थं भोजनं त्यक्तवान् वा यु लेफ्ट् त्यक्तवान् इत्युक्ते लेफ्ट् शीघ्रं करोतु भोजनं
आं करोतु धन्यवादः
सम्यक् धन्यवादः चन्द्रा भगिनी आगच्छतु
नमस्कारः भगिनि
नमस्ते कथमस्ति भवती कथमस्ति भवती
हा सम्यक् अस्मि भवती कथमस्ति
अहं सम्यक् धन्यवादः किं करोति अधुना
अधुना
वर्गे एव भवति
गृहकार्यमेव अधिकमस्ति
एवं सम्यक् उत्तमम् अद्य कथं चलति समयः कथं चलति किं करोति भवती कार्यं करोति वा गृहिणी अस्ति वा
अहं चिकित्सका अस्मि होमियोपेथिक्
चिकित्सकौ
होमियोपति
द्वौ चिकित्सकौ अस्माकं वर्गे
अनेक अस्ति सन्ति
एवं
शशिरेखा भगिनी अपि अस्ति
उत्तमं सम्यक्
गृहमेव अहं कार्यं चिकित्सा ददामि
उत्तमं किं कुत्र वसति भवती
अहं बेङ्गळूरुनगरे पुरातनविमाननिल्दानस्य समीपे अस्मि
सम्यक् धन्यवादः
धन्यवादः
रघुनाथन् महोदय म्यूट् करोतु कृपया
यस्
संस्कृतभाषायां वक्तव्यं
नमस्कारः
नमस्कारः कथमस्ति भवान्
सम्यक् अस्मि
उत्तमं कुत्र वसति भवान् अहं न जानामि
अहं चेन्नै नगरे वसामि
उत्तमं चेन्नै नगरे कुत्र
राजा अण्णापुरपुरं तद्
जानामि उमा भगिनी कृपया म्यूट् करोतु
धन्यवादः
अस्तु भवान् किं करोति कार्यं करोति वा
अहं यन्त्रकार्यालये निवृत्तः
हा उत्तमं निवृत्तः अस्ति वा सम्यक् कोरोना खलु गृहे एव कार्यं करोति वा नो चेत् गच्छति वा कुत्रचित्
गृहमेव अस्मि
गृहे एव खलु
गृहे एव अस्मि
सम्यक् उत्तमम् अस्तु धन्यवादः
धन्यवादः
रूपा भगिनी
नमस्ते भगिनि
नमस्ते कथमस्ति भवती
सम्यक् अस्मि भगिनि
उत्तमं किं करोति भवती
अहं गृहिणी अस्मि पूर्वे ऐ टि साफ्ट्वेर् पूर्वं साफ्ट्वेर् इञ्जिनियर् आसम् पूर्वं साफ्ट्वेर् इञ्जिनियर् आसम् अद्यतन गृहे गृहे एव अस्मि, गृहिणी एव अस्मि.
अहमपि पूर्वं सङ्गणककार्यालये एव कार्यं कृतवती, परन्तु कालानन्तरम् अहमपि त्यक्तवती. तत् त्यक्त्वा गृहिणी अस्मि अहमपि गृहे एव. कुत्र पूर्वं कार्यं कृतवती?
अहं पूर्वं बहु कम्पनी कार्यं कृतवती. इन्फोसिस् कम्पनी इत्युक्ते किं वदामि,
कार्यालयः,
इन्फोसिस् कार्यालये कार्यं अकरं कृतवती. बहु कार्यालये कृतवती भगिनि, षड् पञ्चषट् कार्यालये कार्यं कृतवती. त्यक्त्वा गृहे गृहिणी भव.
सम्यक् सम्यक्, उत्तमं भगिनि, धन्यवादः.
धन्यवादः.
नयना भगिनी आगच्छतु. नयना भगिनी
नमस्कारः.
नमस्कारः भगिनी, कथमस्ति भवती?
सम्यक् भवति.
किं करोति, कुत्र वसति भवती?
अहं मुम्बैनगरे वसामि. पूर्व मुम्बैनगरे वसामि. अद्य खम्बात् नगरे अस्मि.
कुत्र?
खम्बात् नगरे, केम्बे.
हा हा हा, बुद्धम्. कार्यं करोति वा, गृहिणी अस्ति वा, किं करोति भवती?
गृहिणी अस्ति वा. दिस् इस् मै नेटिव् प्लेस्, वाट् शुड् ऐ काल्?
न, मम प्रश्नः अस्ति, भवती गृहिणी अस्ति वा, कार्यं करोति वा कुत्रचित् कार्यालये इति मम प्रश्नः.
अहं गृहिणी अस्मि. पूर्व मणिभवने मुम्बै मध्ये प्रोग्राम् कोर्डिनेटर् कार्य करोति.
अस्तु अस्तु, एवं सम्यक्, उत्तमं,
धन्यवादः.
किमपि वक्तुमिच्छति वा?
प्लीस् केन् यु रिपीट् अगेन् दिस्?
किमपि वक्तुम् इच्छति वा इतोपि?
I didn't understand.
कोऽपि सहायं करोति वा, विद्याधर महोदय? किं पृष्टवती अहम् इति वदति वा भगिन्यः कृते?
भगिनी रूपा वदामि.
वदतु.
अहं वदति वा?
आमां करोतु.
नयना भगिनी भगिनी आस्किङ्ग् इफ् यु वाण्ट् टु से समथिङ्ग् एल्स्, इफ् यु वाण्ट् टु शेर् समथिङ्ग् एल्स्. यु वाण्ट् टु शेर् समथिङ्ग् एल्स् अबौट् योर सेल्फ्?
नो. Yeah, nothing at present.
No. Dhanyavada, Rupa bhai.
Dhanyavada.
Deepa Kamna Bhagini, agachati.
Namaskarah Bhagini.
Namaste, katam asti bhavati?
Aham samyak asmi.
Uttamam, kim karoti bhavati? Travasati.
Aham grahini asmi Bhagini. Bangalore nagare.
बेङ्गलूरु नगरे. कुत्र वसति भवती?
जक्कूरु.
अस्तु अस्तु, एवं. भोजनं कृतं वा, पाकमपि कृतं वा?
आम् भगिनि, भोजनं
उत्तमं. किं कृतवती?
ऐ फिनिश्ड् मै dinner, how do I say? Bhojanam?
Bhojanam abhavat.
Bhojanam abhavat. Dhanyavadam.
Grihini eva khalu, uttam khalu?
Aam bhagini.
उत्तमं सम्यक् अस्तु भगिनी धन्यवादः
धन्यवादः भगिनि
रङ्गराजन् महोदय आगच्छतु
नमस्कारः अहं सम्यक्
कथमस्ति भवान् अहं न पृष्टवती खलु अधुना एव
अहं सम्यक् अस्ति अहं चेन्नै
शृणु एकवारं शृणु अहम् इत्युक्ते शृणोमि इति एव वक्तव्यम् अहं सम्यक् अस्मि
अस्ति
इति न अस्मि
अस्मि अस्मि ओके अगम् ओ अगम् इस् कमिङ्ग् ओके अस्मि ओके अगं चेन्नै वसति
चेन्नै नगरे नगरे इति सप्तमी विभक्ति इन् चेन्नै नगरे वसामि अहं चेन्नै नगरे वसामि
वसामि अहं
चेन्नैनगरे कुत्र वसति अथवा गिण्डीप्रदेशे
अहं वृद्धा अहं गृहं मे कार्यं करोति
गृहे गृहं मे इति हिन्दी हिन्दी
गृहे
अहं गृहे एव
प्रतिदिनं
किञ्चित् प्रयत्नं करोतु सम्यक् एव भवान् वदति किञ्चित् प्रयत्नं करोतु हिन्दी मास्तु हिन्दी मास्तु संस्कृतमेव
किञ्चित् भोजनं
किञ्चित् प्रयत्नं करोतु इतोपि भवान् सम्यक् वदति किञ्चित् प्रयत्नं करोतु इतोपि प्रयत्नं करोति चेत् सम्यक् आगच्छति एव संस्कृतम् अवगच्छति
वा अहम् इञ्जिनियरिङ्ग् कम्पनि मे कां करोति
काम् इति हिन्दी करोति इति दोषाय भवति करोमि इति एव भवान् एव करोति खलु सम्यक् वदतु
प्रतिदिनं मन्दिर प्रवचनं शृणोति
मन्दिरं मन्दिरे प्रवचनं शृणोमि भवान् एव करोति खलु अहं शृणोमि भवती शृणोति यथा अहम् इति आगच्छति शृणोमि खादामि वदामि इति एव आगन्तव्यम् अवगच्छति वा हिन्दी मास्तु महोदय TK
mandir I have to calm I think right from the beginning I am only using this Hindi that is the problem slowly I have to give up that's why I'm making a lot of mistakes
karotu prayatnam na karoti bhavan tate tateiva pratidinam darpana asti kalu grihe mirror asti kalu gatva vadatu sanskrita bhashayam sambhashanam karotu kopi grihe asti chet sambhashanam karotu sanskrita bhashayam kinchit prayatnam karotu
karotu
करोमि पुनः
करोमि
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 अस्तु महोदय धन्यवादः उमा भगिनी
नमस्कार सुमित्रा भगिनी
नमस्कारः उमा भगिनी कथम् अस्ति भवती
अहं सम्यक् अस्मि अहं चेन्नै नगरे पुरुषवाकं प्रान्ते वसामि
अहं न पृष्टवती खलु किं करो कुत्र वसति इति मम प्रश्नः न भवत्याः कृते नूतनप्रश्नः अस्ति
पृच्छतु
किं करोति भवती गृहिणी वा कार्यं करोति वा
अहम् अहं गृहिणी
अस्तु
अहं गृहिणी पूर्वम् अहं वित्तकोषे कार्यं करोत् अस्ति
कुर्वन्
कृतवती वित्तकोषे कार्यं कृतवती
अथवा कुर्वन् आसम्
कुर्वन् आसम्
द्वयमपि समीचीनमेव द्वयमपि वक्तुं शक्यते एव चिन्ता नास्ति अधुना पठतु कुर्वन् आसन् अथवा कृतं
कुर्वन् आसम् अथवा कृतवती
कृतवती द्वयमपि समीचीनमेव. सम्यक्. कुत्र वसति इति उक्तवती? चेन्नैनगरे.
चेन्नैनगरे पुरुषवाक्कं प्रान्ते वसामि.
उत्तमं. पाकं कृतं वा?
आं, पाकं कृतवती. भोजनम् अपि कृतवती.
सम्यक्. उत्तमम्. इतोपि वर्गं, वर्गात् अनन्तरं निद्रां, खलु? वर्गानन्तरम्
अहं निद्रामि. संस्कृतवर्गे अनन्तरम् अहं निद्रामि.
एकनिमिषं भीतः जातः, संस्कृतवर्गे निद्रामि इति.
संस्कृतवर्गे अनन्तरम् अनन्तरं अहं निद्रामि इति उक्तवती. उक्तवती.
अस्तु अस्तु सम्यक् भगिनी, धन्यवादः.
धन्यवादः भगिनी.
नटराजन् महोदय, नमस्ते. नटराजन् महोदय अस्ति वा? सिद्धा नास्ति वा वक्तुम्? अस्तु. विद्याधर महोदय नमस्कारः.
नमस्कारः भगिनि.
कथमस्ति भवान्?
अहं सम्यक् अस्मि.
उत्तमं. किं करोति भवान् अधुना?
अधुना कक्षामध्ये अस्ति अस्मि.
अधुना इत्युक्ते अद्य अथवा ह्यः?
अद्य. अधुना कार्यालयस्य कार्यं करोमि.
गृहतः खलु?
बहवः कार्यम् अस्ति. बहूनि कार्यम् अस्ति.
कार्यालये एव कार्यं करोति भवानपि?
आम् आं भगिनि, सङ्गणककार्यालये एव कार्यं करोमि. अद्य अधुना गृहेण कार्यं करोमि.
गृहे एव कार्यं करोति वा?
गृहे एव कार्यं करोमि.
उत्तमं.
भगिनी, रूपा वदामि. अहमेकं प्रश्नं पृच्छति वा, पृच्छामि वा? विद्याधर महोदय. विद्याधर महोदय, त्वं सङ्गणककार्यालये, सङ्गणककार्यालयस्य नाम किम्?
मम कार्यालयस्य नाम आर्म् इति.
ए आर् एम्. ओके. ओके. चिप् चिप् कम्पनि
कम्प्यूटर् गणकयन्त्रस्य चिप् डिसैन्
करोति. धन्यवादः.
जन्मक्षेत्रं किं महोदय?
मम जन्मक्षेत्रे? मम जन्मक्षेत्रे उडुपिनगरे अस्ति.
मम जन्मक्षेत्रम् उडुपि
अस्ति. मम जन्मक्षेत्रम् उडुपि उडुपि अस्ति.
सम्यक् सम्यक्. उत्तमं. धन्यवादः महोदय, सम्यक् उक्तवान्.
धन्यवादः भगिनि.
अस्तु, प्रतिदिनम् एवं प्रयत्नं कुर्मः. अद्य अहं पृष्टवती अग्रिमसप्ताहे भवन्तः एव करोतु, किमपि वदतु, किं कृतवन्तः, कथम् अस्ति, अथवा किमपि चलनचित्रं पश्यति चेत् तस्य कथा किम् इति अपि वक्तुं शक्यते सर्वे. अधुना पाठं पठामः. पुस्तके कुत्र वयं स्मः? 10.1 खलु? 10.1 इ करणीयम् इति अहं मन्ये. 10.1 इ खलु? आं वा न इति?
आं भगिनि, 10.1 इ.
अस्तु, भवती एव पठतु, प्रारम्भं करोतु. किम् अस्ति अत्र?
अस्तु भगिनि. 10.1e उपरि वाक्यं पठामि. एतेषां प्रश्नानाम् उत्तरं लिखतु.
कोष्टके किम् अस्ति इति पठतु एकवारं.
कोष्टके पदानि सन्ति. कथम् इत्युक्ते
आङ्ग्लभाषायां वदतु.
कथम् इत्युक्ते हौ. सम्यक् अस्ति वा? सम्यक् इत्युक्ते गुड्. समीचीनम् इत्युक्ते करेक्ट्. उत्तमम् इत्युक्ते रियलि गुड् और् फेण्टास्टिक् इति. सुन्दरम् इत्युक्ते ब्यूटिफुल् नैस्. सम्यक् अस्ति वा ट्रान्स्लेशन्?
यदा भवत्याः सिद्धा अस्ति तावत् वदतु.
अस्तु भगिनि. एतेषां प्रश्नानाम् उत्तरं लिखतु. रैट् दि आन्सर्स् टु दीस् क्वश्चन्. सो यथा एकम् उदाहरणमस्ति. आरोग्यं कथम् अस्ति इत्युक्ते हौ इस् युवर् हेल्त्. आरोग्यम् इति हेल्त्. कथम् इत्युक्ते हौ. हौ इस् युर् हेल्त्? तस्य उत्तरम् अस्ति आरोग्यं सम्यक् अस्ति. हेल्त् इस् गुड् और् हेल्त् इस् फैन्. यथा अग्रिमपि करोमि वा?
किमपि वक्तुम् इच्छति वा इतोपि?
आरोग्यं कथमस्ति अबौट् दिस् अग्रं पठामि वा?
एकम् एव करोतु.
एकं करोमि. वातावरणं कथमस्ति मीन्स् वेदर्. वातावरणम् इति वेदर्
कथमस्ति?
तस्य उत्तरं वातावरणं मनोहरमस्ति. वातावरणं सुन्दरमस्ति. वेदर् इस् ब्यूटिफुल्.
उत्तमं. धन्यवादः. सम्यक्
उक्तवती. धन्यवादः. धन्यवादः भगिनि.
विजयमहोदय अग्रिमं करोति वा?
बालकः कथं धावति? हौ डस् दि बाय् रन्? बालकः
धावति इत्युक्ते किं?
धावति टु रन्.
सम्यक्.
सो बालकः शीघ्रं धावति.
न महोदय, कोष्टके यत् दत्तम् अस्ति तथैव. सोरि.
बालकः सम्यक् धावति.
सम्यक् इस् आक्चुलि करेक्ट्. ओके. उत्तमं गुड्. हि रन्स् गुड्.
इस् देर् डिफ़रेन्स् बिट्वीन् सम्यक् अण्ड् समीचीनम्? बोथ् आर् करेक्ट्.
No, there is a subtle difference in both. Uttamam is the highest possible degree, or you can say excellent or the best. Okay. Samyak is correct. Okay. And what else is there?
Samichinam.
Samichinam is almost the same. And Sundaram is beautiful. So Samichinam and Uttamam can be used alternatively. उत्तमं धावति अथवा सम्यक् धावति द्वयमपि. ऐ मीन् या यु केन् आल्टर्नेटिव्लि यूस् दो. सम्यक् महोदय. धन्यवादः.
धन्यवादः.
वैद्यनाथन् महोदय अग्रिमं करोतु.
एतत् वस्त्रं कथम् अस्ति? that how is that cloth? How is that cloth? Vastram samichinam asti.
Samichinam is almost like correct. We will never say the cloth.
Uttamam, uttamam, uttamam asti.
It is good or it is beautiful.
Uttamam asti.
Athava?
Athava sundaram. Vastram sundaram asti. Sundaram asti.
कृपया म्यूट् मध्ये तिष्ठतु. चन्द्रा भगिनी अग्रिमं करोतु.
आं भगिनि. भीमसेन जोशी कथं गायति?
भीमसेन जोशी कथं गायति?
हौ डस् भीमसेन जोशी सिङ्ग्?
कथं गायति सः?
भीमसेन जोशी उत्तमम् एवं सुन्दरं गायति.
उत्तमं, सम्यक्, उत्तमं. धन्यवादः, धन्यवादः,
धन्यवादः.
रघुनाथन् महोदय.
यस्, टेण्डुल्कर्
एवं करोतु.
टेण्डुल्कर् कथं क्रीडति? How Tendulkar is playing? Tendulkar samyak kridati.
Uttamam. Uttamam kridati, samyak kridati, sundaram kridati. For Tendulkar, everyone matches.
Okay.
Astu, dhanyavadah.
Dhanyavadah.
Nayana Bhagini.
Bhagini.
10.13 karo.
एतासाम् उत्तराणां प्रश्नान्
पुनः सम्यक् पठतु. किम् अस्ति अत्र?
एतासाम् उत्तराणां
एतासां किम् अस्ति दृष्ट्वा पठतु.
एतेषाम् उत्तराणां प्रश्नान् लिखतु.
किं दत्तमस्ति अत्र?
So answers are given, write the question to that.
उदाहरणं पठतु. पठित्वा एकं उदाहरणम् अनन्तरं
यथा उदाहरणम् उद्यानं सुन्दरम् अस्ति. उद्यानं कथम् अस्ति?
किम् अवगच्छति? किं दत्तमस्ति अत्र? उद्यानम् इत्युक्ते किं? सुन्दरम् इत्युक्ते किम्?
उद्यानं सुन्दरम् अस्ति.
आङ्ग्लभाषायाम् अर्थं वदतु. किं दत्तम् अस्ति अत्र इति वदतु एकवारम्. भवती उक्तवती उद्यानं सुन्दरम् अस्ति इति, खलु? तस्य विवरणं करोतु. किम् अस्ति अस्ति, किं दत्तम् अस्ति अस्ति? आङ्ग्लभाषायाम् एकवारं विवरणं करोतु.
उद्यानम्
उद्यानमित्युक्ते किम्? भवती जानाति इति मन्ये. किम् इति
वदतु.
कोऽपि सहायं करोति वा?
उद्यानं she is asking you to translate in English.
So Ahavi garden.
उत्तरं किं दत्तवती? प्रश्नरूपेण उत्तरं किम् आसीत्? उद्यानं कथम् अस्ति इति, इत्युक्ते किम् इति अपि विवरणं करोतु.
हावीस् गार्डन् इस् ब्यूटिफुल्. हावीस् गार्डन्
सम्यक्.
उद्यानं कथम् अस्ति?
अग्रिममपि करोतु.
भोजनम् उत्तम अस्ति.
उत्तमम् इति अस्ति. एकनिमिषं ध्यानेन पठतु.
अस्तु. भोजनम् उत्तमम् अस्ति. फुड् इस् वेरि गुड्. सो भोजनं कथम् अस्ति?
सम्यक्.
हव् इस् फुड्?
उत्तमं सम्यक्.
धन्यवादः.
दीपा कम्नाथ भगिनी आगच्छतु, अग्रिमं करोतु.
एतत् चलनचित्रं सम्यक् नास्ति. एतत् चलनचित्रं कथम् अस्ति?
विवरणम् अपि करोतु एकवारम्.
एतत् चलनचित्रं सम्यक् नास्ति. देट् मीन्स् दट् दिस् पर्टिक्युलर् मूवी इस् नाट् गुड्.
उत्तमम्.
एतत् चलनचित्रं कथम् अस्ति? हौ इस् दिस् मूवी?
उत्तमं.
तत् Should I do the next one?
धन्यवादः. रङ्गराजन् महोदय अग्रिमं करोतु.
तत् पुस्तकम् उत्तमम् अस्ति. तत् पुस्तकं कथम् अस्ति?
विवरणं करोतु आङ्ग्लभाषायां, किं दत्तमस्ति अत्र?
That book, how is it? For the answer, that book is very good. उत्तमम्.
अस्तु, धन्यवादः. उमा भगिनी अग्रिमं करोतु.
नमस्कारः भगिनि. सः सर्वं कार्यं सम्यक् करोति. सः सर्वं कथं कार्यं करोति?
न, अत्र सः सर्वं कार्यं कथं करोति इति वक्तव्यं. भवती किम् उक्तवती? सः सर्वं कथं कार्यं करोति इति न, सम्यक् इत्यस्य कृते एव कथम् इति परिवर्तनं.
सः सर्वं कार्यं कथं करोति,
विवरणं किम्?
सः सर्वं कार्यं,
सः इत्युक्ते किम्?
सः मीन्स् हि हौ डस् हि डू आल् द वर्क्?
उत्तरं किम्?
हि डस् आल् द वर्क् ब्यूटिफुलि.
सम्यक्
सम्यक् मीन्स् गुड् गुड्
गुड्.
हि डस् आल् द वर्क् गुड्.
उत्तमं, धन्यवादः.
धन्यवादः.
नटराजन् महोदय सिद्धः अस्ति वा, वक्तुमिच्छति वा? जगमोहन् महोदय.
आम्, I'm sorry, a little late. It's रामायणं.
चिन्ता नास्ति. पठतु.
रामायणं बहु विस्तृतम् अस्ति. रामायण इस् वेरि डिटेल्ड्.
महोदय, रामायणम् इति न, रामायणम् इति.
रामायणं
रामायणं रामायणम् इति मास्तु.
रामायणं
महोदय, मयनम् इति अपि न, रामायणं रामायणं
रामायणं
रामायणं रामायणं न मयनम् इति न, मयनमिति मास्तु, मायनं रामा, द्वयमपि दीर्घस्वराः.
रामायणं
रामायणं
रामायणं बहु विस्तृतम् अस्ति. रामायणं इस् वेरि डिटेल्ड्.
हिन्दी मास्तु महोदय, केवलं संस्कृतम् अथवा आवश्यकं चेत् आङ्ग्लम् उपयोगं करोतु, हिन्दी मास्तु.
आम्, रामायण इस् वेरि डिटेल्ड्
avagatam avagatam prashnam kim
prashnam is ramayanam katham asti
uttama ramayanam katham asti iti
ramayanam katham asti
samyak avagachati kalu kim dattam iti astu विद्याधर महोदय अग्रिमं करोति वा कस्यचित् कृते प्रश्नः अस्ति चेत् पृच्छतु नो चेत् वयम् अग्रे सरेम
भगिनी रूपा वदामि एकं प्रश्नमस्ति पूर्व 10.1e तस्य एकं वाक्यमस्ति भीमसेन जोशी तस्य पद न अवगच्छति भीमसेन जोशी पुल्लिङ्ग अस्ति खलु इकारान्तपुल्लिङ्ग इति हरिशब्द इति भवति भीमसेन जोशी ईकारान्त भवति तत्रापि तदापि भवति वा ईकारान्त
शब्दमञ्जरी अस्ति खलु तत्र एकवारं पश्यतु किमपि अस्ति वा इति भवति एव तस्य समाधानमपि अग्रिम यथा अग्रिमं वयं मिलामः भवति एव समाधानमपि ददातु नो चेत् अहं वदामि
अस्तु भगिनि
एकवारं प्रयत्नं करोतु भवती जानाति एकवारं शब्दमञ्जरी पुस्तकमस्ति खलु अत्र पश्यतु दृष्ट्वा वदतु किमिति
दृष्ट्वा
समीचीनः समीचीनं प्रश्नमेव उत्तमं भवत्याः आब्सर्वेशन् समीचीनं एकवारं पश्यतु अत्र
पश्यामि भगिनि धन्यवादः
अस्तु धन्यवादः किमपि प्रश्नः अस्ति वा नो चेत् विद्याधर महोदय अग्रिमं करोतु नास्ति इति मन्ये महोदय कृपया पठतु अग्रिमं किमर्थम् इति नूतनविषयः महोदय पठति वा न श्रूयते कृपया पठतु
म्यूट् मध्ये
चिन्ता
अग्रिमविषयं किमर्थम् इति प्रश्नः सः किमर्थं विद्यालयं गच्छति सः पठनार्थं विद्यालयं गच्छति प्रश्नस्य अर्थं
विवरणं करोतु
आङ्ग्लभाषायां द क्वश्चन् इस् हि वै किमर्थं मीन्स् वै सो द क्वश्चन् बिकम् वै इस् हि गोयिङ्ग् टु द स्कूल् विद्यालयम् इस् स्कूल् सो बेसिकलि किमर्थं हियर् इस् इण्डिकेटिङ्ग् द वै पायिण्टिङ्ग् टु द पर्पस् and the answer is saha patanartham vidyalayam gacchati he is going to school for studies
samya dhanyavad mohdya vijay mohdya ek varam kim dattam isti patitva udaharanam api patat
prayatnam karomi atra शब्दद्वयं लिखितम् अस्ति तत् उपयुज्य प्रश्नम् उत्तरं च लिखतु यथा योगासनं
किं किम् इति विवरणं करोतु आङ्ग्लभाषायाम् एकवारं वदतु किं दत्तम् अस्ति अत्र
आङ्ग्लभाषां विवरणं देर् आर् टु वर्ड्स् गिवन्
शब्दद्वयं लिखितं written
words two words written with try to frame a question for those using those two words.
Oh, samyak. Uttamam. Udaharanam api padatu. Yatha.
Yatha. Yogasanam slash arogyartham. Yogasanam is yoga. Arogyartham is for good health. Saha kimartham yogasanam karoti. Saha arogyartham yogasanam karoti.
Uttamam. Vivaranam karotu kripaya.
Saha kimartham yogasanam karoti. For what reason or for what purpose he is doing yogasanam. Saha arogyartham yogasanam karoti. He is doing yogasanam for his good health.
Uttamam. Samyak. Dhanyavadaha.
Dhanyavadaha.
वैद्यनाथन महोदय अग्रिमं करोति वा
करोमि भगिनि ग्रन्थालयं पठनार्थं
सम्यक्
सह किमर्थं ग्रन्थालयं गच्छति
उत्तमं
सः पठनार्थं ग्रन्थालयं गच्छति
उत्तमं महोदय विवरणं कृपया करोतु
ग्रन्थालयं इस् कालेज् पठनार्थं टु स्टडि ग्रन्थालयं कालेज् आर् युनिवर्सिटि सारि लैब्ररि 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 सारि वै डस् हि सः वै डस् हि गो टु ग्रन्थालयं लैब्ररि He goes to library to study.
Uttama. Samyak.
Thank you.
Dhanyavadaha.
Dhanyavadaha.
Chandra Bhagini agrimam karotu.
Agrimam. Chikitsalayam. Aushadartham. Chikitsalayam means hospital or clinic. Aushadartham, medicines. Saha सः किमर्थं चिकित्सालयं गच्छति सः औषधार्थं चिकित्सालयं गच्छति वै डस् हि गो टु द क्लिनिक् हि गोस् टु द क्लिनिक् फार् मेडिसिन्स्
उत्तमं सम्यक् रघुनाथन् महोदय अग्रिमं करोतु
प्रवासार्थं
क्षम्यतां रघुनाथन् महोदय एव खलु आं पठतु पठतु
विदेशं प्रवासार्थं
प्रवासार्थं
प्रवासार्थं प्रवासार्थं प्रवासार्थं
एकनिमिषं प्रवासार्थं सा शा इति न
प्रवासार्थं प्रवासार्थं वाट् डस् इट् मीन् विदेशं मीन्स् गोयिङ्ग् अब्राड् अब्राड्
प्रवासार्थम् इत्युक्ते एक्स्कर्षन् ट्रिप् इति वदामः
टूरिसम्
सः किमर्थं विदेशं गतवान्
गतवान् इति पास्ट् टेन्स्
पास्ट् टेन्स् या किमर्थं सः किमर्थं विदेशं गच्छति
न गतवान् इति एव पठतु पुस्तके गतवान् इति एव दत्तं खलु किमर्थं गच्छति इति परिवर्तनं करोति भवान् परिवर्तनं मास्तु यत् पुस्तके अस्ति तथैव पठतु
सः विदेशं सः किमर्थं विदेशं गतवान् सः प्रवासार्थं विदेशं गतवान्
सः प्रवासार्थं
प्रवासार्थं विदेशं गतवान्
आङ्ग्लभाषायां विवरणं
what is the purpose of he is going to abroad purpose of going abroad just to see the places on an excursion
ma'am I think pravasartham should be for staying or immigration is it
not necessarily
pravasi have used word like migratory word pravasi pakshi so pravasartham may be for migration is it for migration or for touring
no not necessarily
okay pravasartham is for touring
yeah pravasa in general it means to trip or foreign residence or a journey tour all can be called pravasa
I thought like is migration
no not necessary
okay that's fine.
Because vasati pravasati has two different meanings vasati is residing pra is a upasarga so here vasam pravasa so that way it differs so he just goes for a tour
okay that's fine
रूपा भगिनि किमपि प्रश्नः अस्ति वा कस्यचित् कृते नो चेत् अग्रे हरे
भगिनि मम नाम नेक्स्ट् 11.1
आम् 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 कस्यचित् अपि प्रश्नः अस्ति चेत् पृच्छतु नो चेत् भवति पठतु 11.1
अस्तु भगिनि पठामि भूतकालरूपाणि रूपाणि मीनिङ्ग् पास्ट् टेन्स् रूप रिक्तानि स्थलानि पूरयतु एकं कोष्टकमस्ति कोष्टके पुल्लिङ्ग स्त्रीलिङ्ग पदानि सन्ति प्रथमं एकवचन बहुवचन
पुल्लिङ्गे एकवचनं पुल्लिङ्गे बहुवचनं
बहुवचनं
एकवचनं स्त्रीलिङ्गे बहुवचनम् इत्युक्ते बहुवचनं सिङ्ग्युलर् मास्कुलिन् फेमिनैन् सिङ्ग्युलर् फेमिनैन्
प्लूरल् प्रथमं पठति इति अस्ति पठति मीन्स् प्रेसेण्ट् टेन्स् फार् रीड् पठति हि ओर् शी रीड्स् तस्य भूतकालरूपं पुल्लिङ्गे एकवचनं पठितवान् बहुवचनं पठितवन्तः स्त्रीलिङ्गरूपं पठितवती एकवचनं बहुवचनं पठितवत्यः पठितवान् पठितवन्तः
उदाहरणं वक्तुं सिद्धा अस्ति वा
प्रयत्नं करोमि सः पाठशाले पठितवान् हि स्टडीड् इन् द स्कूल्
पठितवान्
सः विद्यालये पठितवान् सर्वेषां विद्यालये पठितवन्तः एव्रिबडी स्टडीड् इन् स्कूल् तादृशमेव सा ग्रन्थालये पठितवती शी रेड् इन् द शी स्टडीड् शी रेड् इन् द लैब्ररि
सा इत्यस्य
ताः भगवद्गीता श्लोकानि पठितव्यः पठितवत्यः ताः गीताश्लोकानि पठितवत्यः दे रेड् गीताश्लोकास् भगिनि प्रश्नमस्ति, लट् लकारे पुंलिङ्गे स्त्रीलिङ्गे रूपं एकः हि सन्ति खलु, एकः हि स्तः
भिन्नम् इति न, समानमेव,
एकमेव
पठति एव, सः पठति सा पठति
समानमेव.
यथा लोट् लकारे आगच्छति तत्रैव भेदः दृश्यते.
दिस् इस् लोट् लकार, एतत् लोट् लकार अस्ति. भूतकालरूपं लङ् लकार खलु, लोट् लकार अस्ति वा
अत्र पश्यतु, अष्ट
लङ् लोट् मध्ये. ओके पश्यामि,
क्षम्यताम् अहं भ्रमः जातः. भवती यत् उक्तं तत् सम्यक् एव. यथा भवत्याः कृते प्रश्नः उदेति, अष्टाध्यायी डाट् काम् मध्ये धातुपाठः इति अस्ति, तत्रापि द्रष्टुं शक्यते.
भगिनि, अहं चन्द्रा अस्मि. कदाचित् एतत् अष्टाध्यायी कथम् उपयोगं कर्तुं शक्नोमि इति भवती वदति चेत् सम्यक् अस्ति.
अस्तु, अहं करोमि भगिनि, अद्य अथवा अग्रिमसप्ताहे अहं निश्चयं करोमि.
आं भगिनि, धन्यवादः.
किमर्थम् इत्युक्ते अत्र किञ्चित् कीबोर्ड् मध्ये क्लेशः जातः अत्र सङ्गणके, तत् सम्यक् उपयोगं कर्तुं शक्नोमि चेत् अद्य करोमि अथवा अग्रिमसप्ताहे निश्चयं करोमि. अन्य कोऽपि प्रश्नः अस्ति वा, नो चेत् वयम् अग्रे सरेम.
एकं प्रश्नं
पृच्छतु,
पठति भूतकाल कैन बी अपठति
अपठत,
तो व्हाट इज द डिफरेंस बिटवीन अपठति एंड पठतिवान.
अग्रे वदामि, तदपि लंग लकारः एव, परन्तु तस्य इतोपि किञ्चित् वक्तव्यम् अधुना मास्तु. यथा टेंस इति लकारः इति एव वयं पश्यामः, किञ्चित् कालानन्तरं पश्यामः, तत्र पठामः.
धन्यवादः.
धन्यवादः. नयना भगिनी,
आं भगिनी, पतति प्रेजेंट टेंस, पतितवान पुलिंग एकवचन, पतितवंतः पुलिंग बहुवचन.
भगिनी एक निमिषम, पतितवान इति मास्तु, पतितवान,
पतितवान
भगिनी, पतितवान,
पतितवान,
पतितवान, पतितवान इति मास्तु,
पतितवान, पति पतितवान, पुल्लिङ्ग एकवचन, पतितवन्त पुल्लिङ्ग बहुवचन,
स्वर्गं कुत्र गच्छति स्वर्गमस्ति खलु,
पतितवन्तः पुल्लिङ्ग बहुवचन, पतितव पुल्लिङ्गे, पुल्लिङ्गे, क्षम्यक, क्षम्यक, पतितवती स्त्रीलिङ्गे एकवचनं
सम्यक् पठतु भगिनी
पतितवती सोरि पतितवती स्त्रीलिङ्गे एकवचनं पतितवत्यः स्त्रीलिङ्गे बहुवचनः
पठति इति इत्यस्य अर्थं किम् आङ्ग्लभाषायां वदतु
I don't know meaning of pathati. No, na na janati.
Falling.
Na janati. Falling.
Balika patati. Girl fall. Naina Madhini avagachati va?
Bal. So
बालिका पतति इत्युक्ते द गर्ल् फाल्
फाल्
बालिका पतितवती
बालिकी
फेल् द गर्ल् फेल्
फेल्
बालिका
बालिका पतितवती बालिकाः पतितवत्यः
बालकः बालकाः बालकः
बालकः पतितवान् बालकाः पतितवन्तः
प्रश्नः अस्ति वा
धन्यवादः
आं भगिनी वदति वाट् इस् रिटन् ऐ डिन्ट् गेट् इट् to what said that I didn't get it vaditavan vadati vadativan
atra kim dattam asti
I didn't understand that
read it no
it's written in ekavachana it's written उक्तवान् इस् इट्
नो
ऐ एम् नाट् एबल् टु गेट् इट् भगिनि
भगिनी उक्त किमर्थं भगिनी उक्त इति अत्र दत्तं खलु किमर्थं वदितवान् इति वदति दोषाय भवति अत्र उक्त इति अस्ति वान् इति संयोगं करोतु अत्र
उक्तवान्
उक्तवान्
उक्तवन्तः
सम्यक्
उक्तवती
सम्यक्
उक्तवत्यः
सम्यक् पुनः एकवारं स्पष्टतया वदतु पुल्लिङ्गे एकवचनं बहुवचनम् अपि च स्त्रीलिङ्गे एकवचनं
वदति पुल्लिङ्गे एकवचनं उक्तवान्
स्त्रीलिङ्गे
बहुवचनम् उक्तवन्तः
उत्तमं
स्त्रीलिङ्गे एकवचनं उक्तवती बहुवचनम् उक्तवत्यः
उत्तमं सम्यक् धन्यवादः रङ्गराजन् महोदय अग्रिमं करोतु
हलो बिपति
पिबति महोदय
बिपाति बिपाति
न पिबति
बिपति
पिबति
Bipati drink. What is the peet with him? Peet. Pulling a niche. Peet meaning?
Vadatu bhavane eva vadatu.
Peet. Peet. Bipatvan. Peet.
Mahodaya, mute madhe tishtatu shrunotu. Uma bhagini karotu. Agrimam. Uma bhagini?
Pibati. Pullinge ekavachanam peetavan. Pullinge bahuvachanam peetavantaha. Strilinge ekavachanam. Bhutakala strilinge bhutakala rupani. Pullinge ekavachanam peetavan. Pullinge bahuvachanam peetavantaha. Strilinge ekavachanam peetavati. Strilinge bahuvachanam peetavatyah.
Samyak. Dhanyavadah.
Dhanyavadah.
Vidhyadhar mahodaya karotu. Agrim. Vidhyadhar mahodaya, mute madhye. Unmute karo to ek bar. Mahodaya kimati vadati va na shruyate. Jagmohan mahodaya bhavan karo to.
Sorry. Is it likati? This is pulinge ek vachanam likhitavan.
Likhitavan.
Likhitavan. Pulinge bahu vachanam likhitvantaha.
Likhitavantaha. Ta iti urnataya vatu. Iti ti na.
Okay. Likhitavantaha.
Samyak.
Then ustrilinge ek vachanam likhitvati.
Likhitavati.
Likhitavati. Thank you. Likhitavati. Then is istrilinge bahuvachan likhitavatyaha.
Samyak. Likhitavatyaha. Dhanyavadaha.
Thank you.
Rupa bhagini agrimam karotu kripaya. आम भगिनी अग्रिमं नयति इति भवति भूतकाल पुल्लिङ्गम् एकवचन नीतवान् बहुवचनः नीतवन्तः स्त्रीलिङ्गरूपम् एकवचनं नीतवती बहुवचनरूपं नीतवत्यः भगिनी त्वमेकं कोष्टकस्य विषये वदति खलु तस्य जालस्थलं किम् इति सन्देशं वाट्साप् करोति वा कोष्टकं किमपि कोष्टकं विषये त्वं वदति दृष्टतु इति वदति शब्दमञ्जरी मध्ये वदति
शब्दमञ्जरी तस्य अपि अस्ति वा भूतकालं सर्वं भूतकालरूपाणि
तत्तु अष्टाध्यायी डाट् काम् मध्ये एव अस्ति तत्र
अष्टाध्यायी तस्य
अष्टाध्यायी.com इति एकं वेब्सैट् अस्ति अत्र पश्यतु धातुपाठः इति एकम् अस्ति अत्र
सूत्रपाठः इति एककोष्टकम् अपि च धातुपाठकः इति पाठः इति अन्यत् अस्ति. अत्र धातुपाठः इति गत्वा टैप् करोतु, नोदयतु यत् आवश्यकं तत् तत् शब्दम् अथवा धातु नोदयतु, नोदयित्वा सर्च् इति नोदयति चेत् तत्र सर्वे लकाराः तत्र सन्ति, सर्वे धातूनां कृते.
भवतु भगिनि, तस्य नाम
अहं दर्शयामि, अहं प्रेषयामि, अहमपि दर्शयामि अग्रिमसप्ताहे, अहं दर्शयामि कथम् उपयोगं करणीयम् इति.
आं भगिनि, नामं ऐ फगाट्.
अहं प्रेषयामि अत्र घनम् अस्ति खलु वाट्सप् घने, अहं प्रेषयामि किम् इति.
ओके ओके भगिनि, थेङ्क् यू,
स्वागतं,
धन्यवादः.
स्वागतं विद्याधर महोदय, कृपया करोतु अग्रिमम्.
अग्रिमशब्दः पश्यति इति, एतत् शब्दः दृष्ट इति मूल भूतकाले दृष्ट इति रूपान्तरणं भवन्ति. पुल्लिङ्गे एकवचने दृष्टवान् इति भवन्ति, बहुवचने दृष्टवन्तः इति भवन्ति, स्त्रीलिङ्गे एकवचने
इति भवति,
भवति स्त्रीलिङ्गे एकवचने दृष्टवती इति भवति, स्त्रीलिङ्गे बहुवचने दृष्टवत्यः इति भवति.
सम्यक्, उत्तमं, धन्यवादः.
धन्यवादः.
पुनः वैद्यनाथमहोदय अग्रिमं करोतु. वैद्यनाथमहोदय अस्ति वा?
पुल्लिङ्गे एकवचनं पृष्टवान्, बहुवचन पुल्लिङ्गे पृष्टवन्त्यः पुल्लिङ्गे बहुवचन पृष्टवन्तः, स्त्रीलिङ्गे पुष्टवती, बहुवचन स्त्रीलिङ्गे पुष्टपद्यः पृष्टवद्यः.
अपि च बहुवचनम् इति वदतु, बहुवचन
बहुवचन
वचनम् इति एव, वचन् इति मास्तु, वचन् इति संस्कृतं न, वचनम् इति एव संस्कृतं,
वचनं वचनं एकवचनं बहुवचनं.
अस्तु, धन्यवादः. चन्द्रवती,
आं भगिनि, अग्रिमम् अस्ति त्यजति. त्यजति मीन्स् टु रेफ्यूज़् आर् थ्रो, इस् इट्?
To
leave, okay. That,
maybe could be in habit or any habit, or leaving a habit, or habit, leaving food, or leaving food, or leaving the life, or your life.
That bhutakale tat bhavati tyaktiti, pullinge ekavachanam tyaktavan, pullinge bahuvachanam tyaktavantaha, स्त्रीलिङ्गे एकवचनं त्यक्तवती, स्त्रीलिङ्गे बहुवचनं त्यक्तवत्यः. धन्यवादः.
अग्रिमं रघुनाथन् महोदय अग्रिमं करोतु.
अग्रिमप्रश्नं खादति पुल्लिङ्ग एकवचनं
खादितवान् पुल्लिङ्ग बहुवचनं खादितवन्तः श्रीलिङ्ग स्त्रीलिङ्ग एकवचनं खादितवती श्रीलिङ्ग बहुवचनं खादितवत्यः
जानाति वर्तमानकाले पुल्लिङ्गे एकवचनं पुल्लिङ्गे पुल्लिङ्गे एकवचनं ज्ञातवान् पुल्लिङ्गे बहुवचनं ज्ञातवन्तः स्त्रीलिङ्गे एकवचनं ज्ञातवती स्त्रीलिङ्गे बहुवचनं ज्ञातवन्त्यः ज्ञातवत्यः
न इति न
ज्ञातवत्यः
आं भगिनी करोति इति शब्दः पुल्लिङ्गे एकवचनं कृतवान् पुल्लिङ्गे बहुवचनं कृतवन्तः
उत्तमं
स्त्रीलिङ्गे एकवचनं कृतवती स्त्रीलिङ्गे बहुवचनं कृतवत्यः
धन्यवादः रङ्गराजमहोदय रङ्गराजमहोदय अस्ति वा
हलो
पठतु
शृणोति पुल्लिङ्गे एकवचनं श्रुतवान् पुल्लिङ्गे बहुवचनं श्रुतवन्तः स्त्रीलिङ्गे एकवचनं श्रुतवती
उत्तमम्
अन् पुल्लिङ्गे बहुवचनं श्रुतवत्यः
सम्यक् धन्यवादः उमा भगिनी अग्रिमं करोतु
आं भगिनि आं भगिनि भूतकालरूपाणि ददाति शब्दः भूतकालरूपाणि
दत्तवान् क्रियापदं
ददाति
वर्तमानकाले ददाति इति
वर्तमानकाले ददाति भूतकालं वदतु वदामि पुल्लिङ्गे एकवचनं दत्तवान् पुल्लिङ्गे बहुवचनं दत्तवन्तः स्त्रीलिङ्गे एकवचनं दत्तवती स्त्रीलिङ्गे बहुवचनं दत्तवत्यः
धन्यवादः
भगिनि
उत्तिष्ठति वर्तमान वर्तमानकाले उत्तिष्ठति क्रियापदानि अण्ड् भूतकाले पुल्लिङ्गे भूतकाल पुल्लिङ्गे
महोदय एकनिमिषम् एकनिमिषम् भूतकाल इति हिन्दीभाषायामेव वक्तुं शक्यते यथा संस्कृतं पठति भवान् भूत इति सम्यक्तया वदतु
भूतकाल
इति सम्पूर्णं वदतु इत् इल् इति मास्तु
ओके भूतकाल
न भवान् तदैव पुनः करोति हिन्दी त्यक्त्वा संस्कृतं वदतु. भूत इति वदतु. भूत इति न
भूत, भूत काल.
महोदय शृणोतु, भू त त इति वदतु, केवलं त वदतु. इत्थन इति न वदति खलु. भूत, भूत इति न, भूत इति वदतु.
भूत
भूत
भूत भूत भूत
भूत काल इल् इति मास्तु.
भूत काल
भूत काल सम्यक् वदतु
सम्पूर्णतया. भूत भूत काल राइट.
न रेकार्डिङ्ग् एकवारं शृणोतु. किं वदामि इति वित् पेशन्स् लिसन् फर् सम् टैम् अण्ड् देन् यू केन् ट्रै. वदतु अत्र किम् इति पठ. जगमोहन् महोदय पठतु. उत्तिष्ठति भूतकालरूपं किं पुल्लिङ्गे.
भूत भूत काल पुल्लिङ्गे एक वचनं राइट. द उत्तिष्ठति बिकम उत्तिथ 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 वान
उत्थितवान त इति पठतु.
उत्थितवान 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 बहुवचनं उत्थितवन्तः. सम्यक् तन् इस्तिलिङ्गे उत्थितवती उपविष्ट. तन् बहुवचनं उत्थित एकवचनं.
धन्यवादः. रूपा भगिनी अग्रिमं करोतु.
आं भगिनि, अग्रिमम् उपविशति इति भूतकालरूपम्. उपविष्टवान् उपविष्टवन्तः स्त्रीलिङ्गरूपम्. उपविष्टवती बहुवचनरूपं नास्ति वा?
अत्र मुद्रणदोषमेव.
मुद्रणदोषं उपविष्टवत्यः.
सम्यक् उत्तमं. धन्यवादः. विद्याधर् महोदय अग्रिमं करोतु.
धन्यवादः.
विद्याधर् महोदय अस्ति वा?
अस्मि भगिनि.
अग्रिमं करोतु.
अग्रिमक्रियापदः स्थापयति. एतत् क्रियापदः भूतकाले मध्ये क्रियापदं भूतकालमध्ये
पुल्लिङ्गे
पुल्लिङ्गे एकवचने स्थापितवान् इति भवति. बहुवचने स्थापितवन्तः इति भवति. स्त्रीलिङ्गे एकवचने स्थापितवती इति भवति. बहुवचने स्थापितवत्यः इति भवति.
धन्यवादः.
धन्यवादः.
विजय महोदय अग्रिमं करोतु कृपया.
अग्रिमं भिन्नाति पुल्लिङ्गे एकवचनं गृहीतवान् बहुवचनं स्त्रीलिङ्गे एकवचनं
बहुवचनं किं महोदय.
गृहीतवती पुल्लिङ्गे गृहीतवन्तः.
स्त्रीलिङ्गं वदतु.
स्त्रीलिङ्ग गृहीतवन्तः.
एनी
प्रोब्लम्?
आम् दोषः भवति.
स्त्रीलिङ्गम् एकवचने एकवचने स्त्रीलिङ्गं गृहीतवती बहुवचने गृहीतवत्यः.
सम्यक्, उत्तमं, धन्यवादः.
धन्यवादः
वैद्यनाथन् महोदय, अग्रिमं करोतु.
आं भगिनि, पठतु. रोदिति इति क्रियापदः.
रोदिति,
रोदिति. रुदितवान् पुल्लिङ्गे एकवचनं. रुदितवन्तः, रुदितवन्तः बहुवचनं. स्त्रीलिङ्गे रुदितवती, रुदितवती बहुवचनं. रुदितवद्यः,
रुदितवद्यः,
रुदितवद्यः.
कृपया स्पष्टतया वदतु वत्यः इति. वत् इति न,
वत्यः, उदितवत्यः, उदितवत्यः.
न न महोदय, रुदि तत्र दि एव, रुदितवत्यः,
रुदितवत्यः.
सम्यक्, उत्तमम्,
धन्यवादः.
अग्रिमं चन्द्रा भगिनी करोतु.
आं भगिनि, अग्रिमम् अस्ति शक्नोति. शक्नोति मीन्स् केपबल्. भूतकाले शक्त इति भवति, शक्तवान्. पुल्लिङ्गे एकवचनं शक्तवान्, पुल्लिङ्गे बहुवचनं शक्तवन्तः, स्त्रीलिङ्गे एकवचनं शक्तवती, स्त्रीलिङ्गे बहुवचनं शक्तवत्यः. धन्यवादः.
आं भगिनि, भवती अभवत् पुल्लिङ्ग एकवचनम् अभवत्, पुल्लिङ्ग बहुवचनम् अभवन्.
उत्तमं, स्त्रीलिङ्ग एकवचनं बहुवचनं,
स्त्रीलिङ्गे एकवचनम् अभवत्, स्त्रीलिङ्गे बहुवचनम् आल्सो अभवन्.
सम्यक्. कस्यचित् कृते प्रश्नः अस्ति चेत् वाट्सप् मध्ये प्रेषयतु प्रश्नः कः इति, अहम् अत्र उत्तरं ददामि. अत्र स्थगयामः अद्यतनविषये. गृहपाठमस्ति, यावत् पठितवन्तः तावत् लिखित्वा स्थापयतु, लिखित्वा प्रेषयतु, तदेव गृहपाठम्. तर्हि शान्तिमन्त्रं कस्यचित् कृते अस्ति चेत् कृपया. कोऽपि पठितुम् इच्छति वा?
Shall I? ॐ सर्वेषां स्वस्तिर्भवतु, सर्वेषां शान्तिर्भवतु, सर्वेषां पूर्णं भवतु, सर्वेषां मङ्गलं भवतु. ॐ शान्ति शान्ति शान्तिः.
धन्यवादः.
धन्यवादः
सुमित्रा
भगिनी. धन्यवादः भगिनी.
धन्यवादः भगिनी.
धन्यवादः. धन्यवादः.